ॐ शुक्लां भरतरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं हरिः ओं श्रीगुरुभ्यो नमः ॐ अस्तु सो अद्यतन विषयः अस्ति द्वितीया विभक्ति गतवर्गे एतद् वयम् आरम्भं कृतवन्तः तत्र कुत्र कुत्र उपयोगं करणीयम् इति अपि दृष्टवन्तः सो अत्र सारांशरूपेण अत्र अस्ति प्रथमम् अस्ति साधनम् साधनम् इत्युक्ते किम् उपयुज्य कार्यं करोति इति सो तदस्ति साधनं चषकेन चमशेन दूरवाण्या इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा इति निर्णयं कृत्वा अनन्तरम् अन्ते रूपपरिवर्तनं भवति अपि च प्रयाणसमये अपि विमानेन गच्छामि द्विचक्रिकया गच्छामि इति तत्रापि साधनमेव प्रयाणसाधनम् अपि च भावसूचकपदं पदमिति केन मनसा सन्तोषेन दुःखेन कथं गच्छति वेगेन तदपि भावसूचकपदम् एव वेगेन गच्छति कोपेन क्रन्दति दुःखेन रोदिति इति भावसूचकपदं सह योगे तृतीया केन सह गच्छति कया सह गच्छति अपि च विना रामेण विना सीता न गच्छति सीतया विना रामः न गच्छति सो अत्र विना अस्ति चेत् द्वितीया पञ्चमी अपि भवति साधारणतया द्वितीया तृतीया एव अधिकतया उपयोगे भवति पञ्चमी तादृश नास्ति परन्तु तदपि सम्यक् एव अस्तु कारणवाचकं कारणवाचकम् इत्युक्ते किमर्थं भवती न आगच्छति शिरोवेदना आसीत् तेन कारणेन अहं न आगच्छामि इति अस्ति शिरोवेदनया अहं न आगच्छामि अपि वक्तुं शक्नुमः शिरोवेदना आसीत् तेन कारणेन अहं न आगच्छामि अथवा शिरोवेदनया अहं न आगच्छामि इति अपि वक्तुं शक्नुमः सो अत्र कारणम् उक्त्वा तदेव तृतीयाविभक्तिरूपं स्वीकरोति प्राप्नोति शिरोवेदना शिरोवेदनया इति अस्तु यदा वयं क्रीणीमः तदा कियद्धनं दद्मः तस्य पदस्य तृतीयाविभक्तिरूपं भवति कति रूप्यकैः इति प्रश्नः कति रूप्यकैः भवती गृहं क्रीतवती अहम् इति उक्त्वा किमपि दशरूप्यकैः पुस्तकं क्रीतवान् अथवा एतादृशं सो अत्र बहुवचनं भवति रूप्यकैः इति मास्तु इति अर्थे अलम् इति वदामः चेत् अर्थद्वयम् अस्ति एकम् अस्ति पर्याप्तमात्रम् इति उदाहरणार्थं परीक्षां लिखामि तत्र यावत् ज्ञानम् आवश्यकम् इति अस्ति चेत् परीक्षालेखनार्थम् अलं ज्ञानम् अस्ति इत्युक्ते पर्याप्तमात्रम् इनफ् इनफ् ज्ञानम् इति अर्थे अपि अपि भवति अलम् इति अर्थे तत्र चतुर्थीविभक्तिरूपं भवति परन्तु मास्तु इति अर्थे अलं शब्दः तृतीयाविभक्तिरूपे भवति हे बालकः तूष्णीं तिष्ठतु अलं कोलाहलेन साधारणतया एतादृशकोलाहलम् एतादृशपदं किञ्चित् नेगेटिव् अस्ति कोलाहलः अस्ति कोलाहलं कुर्वन्ति बहु शब्दं करोति शब्देन अलं बहु रोदिति रोदनेन अलम् इति अन्ते अस्ति तृतीया विभक्तेः सदृशप्रयोगे तृतीया भवति माता इव अपि सम्यक् माता इव पुत्री अस्ति सो तत्र माता प्रथमाविभक्तिरूपे भवति परन्तु सदृश इति अस्ति चेत् तृतीयाविभक्तिरूपे भवति मात्रा सदृशी किमर्थं सदृशी स्त्रीलिङ्ग मात्रा सदृशी पुत्री अस्ति पित्रा सदृशः पुत्रः अस्ति एवं महाभारतं सदृशम् अन्यकथा नास्ति इति प्रश्नः अस्ति वा अत्र अस्तु कर्मणि प्रयोगे अपि तृतीया विभक्ति भवति तत् अहं न लिखितवती किमर्थमिति तत् न पठितवन्तः इतोपि पर्यन्तं तत्र कर्मणि प्रयोगे तृतीया तत्र कर्तृपदं तृतीया विभक्तिरूपे भवति उदाहरणार्थं महाभारतं केन लिखितं बै हूम् केन लिखितं व्यासेन लिखितम् व्यासेन लिखितं महाभारतम् इति सो तत्र कर्तृपदं कर्ता तृतीयाविभक्तिरूपे भवति अस्तु सो अन्य सो अत्र रूपाणि एवं भवति वयं पूर्वमेव जानीमः परन्तु सारांशरूपेण पठित्वा गच्छामः रामेण रामाभ्यां रामैः सो अत्र रामैः इति भवति किञ्चित् भिन्नरूपं पुल्लिङ्गे भवति अकारान्त नपुंसकलिङ्गे अपि एवं भवति अन्य सर्वत्र बहुवचनं सुलभमेव मूलरूपं भिः मूलरूपं भिः पितृमूलरूपं भिः स्त्रीलिङ्गे अपि समानं रमाभिः मतिभिः गौरीभिः धेनुभिः वधूभिः मातृभिः नपुंसकलिङ्गे अपि तथा एव वारिभिः मधुभिः सर्वत्र बहुवचनं सुलभम् इदानीं द्विवचनमपि सुलभं सर्वत्र आभ्यां भ्यां भवति मूलरूपं भ्यां केवलम् अकारान्तपुल्लिङ्गे अकारान्त नपुंसकलिङ्गे मध्ये आ आगच्छति नो चेत् मूलरूपं भ्यां हरिभ्यां गुरुभ्यां पितृभ्यां रामाभ्यां मतिभ्यां एवं सर्वत्र पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे मूलरूपं भ्यां मूलरूपं भिः सर्वत्र तथा एव अपवादः एक्सेप्शन् अस्ति अकारान्त पुल्लिङ्ग अकारान्त नपुंसकलिङ्गे तत्र एव भेदः अस्ति इदानीम् एकवचने एव किञ्चित् अवधानम् आवश्यकम् रामेण हरिणा गुरुणा अत्र णकारः भवति ण हरिणा गुरुणा परन्तु रामेण किञ्चित् भिन्नरूपम् ऋकारान्तपित्रा सुलभमेव एवमेव नपुंसकलिङ्गे अपि वारिणा मधुना यथा पुल्लिङ्गे अस्ति तथा एव नपुंसकलिङ्गे अपि भवति वारिणा इकारान्त हरिणा वारिणा गुरुणा मधुना स्वत्र मधुना इति दृष्ट्वा पुल्लिङ्गे वा नपुंसकलिङ्गे वा इति ज्ञातुं न शक्नुमः अपि च द्विवचनं बहुवचनं दृष्ट्वा अपि न शक्नुमः अस्तु वारि इत्युक्ते जलं नपुंसकलिङ्गम् इति अस्तु इदानीं स्त्रीलिङ्गे रमा रमया ह्रस्वं भवति आ अ भवति रमया मति मत् या हरि सर्वत्र ई उ गच्छति गौरी गौर् या धेनु देन् वा उ गच्छति वधू वद् वा माता अचल ऋकारान्तपदम् अत्र मात्रा भवति मात्रा भवति अस्तु सर्वनामपदं तेन ताभ्यां तैः तया ताभ्यां ताभिः तेन ताभ्यां तैः पुल्लिङ्गे नपुंसकलिङ्गे समानं तया ताभ्यां ताभिः स्त्रीलिङ्गे अस्ति भवत् शब्दः भवता भवद्भ्यां भवद्भिः भवती इति गौरी इव भवति अस्मद् मया आवाभ्याम् अस्माभिः अत्र अपि आभ्यां सर्वत्र आभ्याम् आभ्याम् आभ्यां भवतीभ्यां परन्तु ईभ्याम् ई अस्ति चेत् ईभ्यां गौरीभ्यां गुरु गुरुभ्याम् एवम् अस्ति सारांशः प्रश्नः अस्ति वा अस्ति चेत् वदन्तु अस्तु अन्य अस्तु अस्तु प्रेषयामि 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 अस्तु एतत् अपि प्रेषितवती खलु पूर्वं नो चेत् एतत् अपि प्रेषयामि अस्तु प्रेषितवती परन्तु पुनः आवश्यकं चेत् प्रेषयामि सो अत्र सारांशरूपेण अपि अत्र अस्ति विना साधनं भावसूचकपदं सह सदृश अलं सो एतादृशम् अपि सम्यक् एव अस्तु इदानीं पुस्तकं प्रति गच्छामः वा प्रश्नः नास्ति खलु प्रथमम् अस्ति साधनम् अर्जुनः रथः गच्छति रथेन गच्छति केन गच्छति रथेन गच्छति अथवा कथं गच्छति अपि सम्यक् एव अर्जुनः कथं गच्छति रथेन गच्छति अर्जुनः बाणेन प्रहरति कथं प्रहरति बाणेन अथवा केन प्रहरति जानीमः चेत् केन प्रहरति बाणेन भीमः केन प्रहरति वयम् उत्तरं न जानीमः चेत् केन सम्यक् एव केन प्रहरति परन्तु उत्तरं गदया प्रहरति परन्तु उत्तरं जानीमः चेत् भीमः कया प्रहरति गदया कया प्रहरति गदया स्त्रीलिङ्ग कया केन पुल्लिङ्गे जलं नपुंसकलिङ्गे केन अभिषिञ्चति अथवा कथम् अभिषिञ्चति अथवा केन केन इति विभक्तिरूपम् उपयुज्य प्रश्नः कथम् इति सप्तककारम् उपयुज्य प्रश्नः द्वौ अपि सम्यक् एव अस्तु ओ बहु न्यूनजनाः एव अस्तु श्रीनिवास महोदय पठति वा प्रश्नमपि वदतु
भटः हयेन गच्छति कृष्णः चक्रायुधेन शिशुपालं हतवान्
सो अत्र प्रश्नः कः
भटः केन गच्छति
केन गच्छति अथवा कथं गच्छति अपि सम्यक् एव हयः इत्युक्ते अश्वः हयः इत्युक्ते अश्वः भटः इस् सैनिकः
कृष्णः शिशुपालं कथं मारितवान् कथं हतवान्
कथं हतवान् चक्रायुधेन अथवा केन हतवान् चक्रायुधेन हतवान् अस्तु अत्र केन इति वदामः चेत् साक्षात् साधनं भवति कथम् इति वदामः चेत् उत्तरं चक्रायुधेन अथवा झटिति कोपेन एवमेवं भिन्नभिन्नरूपाणि भवन्ति खलु अस्तु अग्रे लता भगिनि
आं भगिनि ज्ञानम् अज्ञानेन आवृतं भवति अग्निः धूमेन आवृतः
आवृतः अस्तु वदतु भगिनि अत्र प्रश्नः कः
ज्ञानं केन आवृतं भवति अज्ञानेन आवृतं भवति अग्निः केन आवृतः अग्निः धूमेन आवृतः
धूमेन आवृतः आवृतम् इत्युक्ते
धूमेन आवृतं स्टाप् बर्निङ्ग्
सराउंडेड बै इति उदाहरणार्थं सूर्यः अस्ति मेघाः सन्ति सूर्यः मेघैः आवृतः अस्ति आवरणम् इति वदामः खलु आवरणम् अम्बरम् अस्ति अस्तु निर्मला भगिनी अग्रे
सारी भगिनि ऐ हेड् सम् नेट्वर्क् इश्यूस् ऐ जायिन् जस्ट् नौ ऐल् रीड् कृष्ण धन्यवादः भगिनि कृष्णः अङ्गुल्या निर्दिशति भक्तः मालया देवम् अलङ्करोति
अलङ्करोति अस्तु अत्र मूलरूपं किम् अङ्गुल्या इति अस्ति चेत् अङ्गुली सो अत्र या इति अस्ति चेत्
स्त्रीलिङ्ग
अत्र सर्वदा ई भवति अथवा उ भवति ई अथवा उ सो अत्र अङ्गुली अस्ति वा अङ्गुलू अस्ति वा अङ्गुली एव
अङ्गुली
सो अन्ते स्वरः गच्छति अन्तिमस्वरः गच्छति अङ्गुल् या इति भवति इदानीं मालया इति अस्ति मूलरूपं किं
कृष्णः कया
कया
निर्दिश्यति भक्तः कया देवम् अलङ्करोति
सम्यक्
धन्यवादः
अत्र मालया इति अस्ति मूलरूपं किं मालया
माला
माला सो अत्र आकारः अ भवति ई अन्ते अस्ति चेत् ई अथवा उ अस्ति चेत् गच्छति ई या एवम् अस्ति चेत् ई अथवा ओ अया इति अस्ति चेत् आकारः सम्यक् भगिनि सन्ध्या भगिनि
नमो
नमः भगिनि अस्तु भगिनि
अज्ञानेन आवृतं भवति किम् अर्थं भगिनि अज्ञानेन आवृतं
सो ज्ञानं सो उदाहरणं वदामि सो अत्र अहं चिन्तयामि सर्पः अस्ति इति सो अत्र सो अत्र अन्धकारः अस्ति डार्क् अहं दीपं ज्वालयामि दीपं ज्वालयित्वा अहं पश्यामि तत् सर्पं नास्ति केवलं रज्जु एव इति सो अत्र रज्जु इति ज्ञानम् ज्ञानम् अस्ति, परन्तु ज्ञानस्य उपरि आवरणम् अस्ति अज्ञानम्. अज्ञानम् अहं चिन्तयामि ओ सर्पः इति दृष्ट्वा इति.
धन्यवादः.
आवृतं मीन्स् इट् इस् कवर्ड् इति अर्थे. वाट् इस् द वर्ड् यु यूस् महोदय?
हैडिङ्ग्, हिडन्.
हिडन्, आम् हिडन्. Hidden, surrounded, like that. Eva. Astu Bhagini, Sandhya Bhagini.
Bhagini, Avriti ityukte kim? Avritam is different, right, Bhagini? Avriti is number of times, some repetition or something?
Yeah, repetition, going, surrounding, like no, going round and round iti arte.
Oh, okay. But are they the same, Bhagini, Avritam and Avriti?
That is Avartanam, I think. Avartanam.
Avartanam. Okay, okay. Dhanyavad, Bhagini.
Let's check it, Bhagini. Okay? Okay. Okay. So, you can see this or no?
Bhagini?
Astu. Avriti, right? No. Avriti. Hidden, covering iti arte. Hiding or covering, surrounding, like that. So, avartanam. Repetition.
Dhanyavad, Bhagini.
Dhanyavad.
साधकः योगबलेन परमपुरुषम् उपैति. मूलरूपं योगबलं, नपुंसकलिङ्गं.
योगबल एव बल.
बल, क्षम्यतां भगिनी. साधकः केन परमपुरुषम् उपैति? साधकः योगबलेन परमपुरुषम् उपैति.
उपैति इत्युक्ते गच्छति.
दुर्योधनः गदया शत्रून् प्राहरत्. गदा स्त्रीलिङ्गशब्दम् अस्ति. अतः दुर्योधनः कया शत्रून् प्राहरत्? दुर्योधनः गदया शत्रून् प्राहरत्.
प्राहरत्, सो प्राहरत् इति हृ धातु. सो अत्र हृ धातु अस्ति. तत्र अहरत् प्रथमम्. अहरत् इति कीदृश लकारः?
भूतकाल
लङ्लकार. ततः पूर्वं प्रहरति. हृ धातु प्रहृ इत्युक्ते टु हिट् इति. तादृशम् प्राहर.
अस्तु अस्तु भगिनि,
सम्यक् अस्तु.
धन्यवादः.
धन्यवादः भगिनि. अस्तु, अन्य कोऽपि अस्ति वा? शारदा भगिनि.
नमस्कारः भगिनि.
नमस्कारः भगिनि.
योधः हस्ताभ्यां काहलं वादयति. योधः केन काहलं वादयति?
केन काहलं वादयति? काहलम् इति एकः.
वयं पादाभ्यां सञ्चरामः. वयं कथं सञ्चरामः?
कथं सञ्चरामः, सम्यक्. अथवा काभ्यां सञ्चरामः इति न वदामः. कथं सञ्चरामः? पादाभ्यां, हस्ताभ्याम्. अस्तु
भगिनि, काहलम् इत्युक्ते किं भगिनि?
काहलम् इत्युक्ते एकम् इन्स्ट्रुमेण्ट्.
इन्स्ट्रुमेण्ट्, ओके.
ड्रम् भगिनि?
ड्रम् अभीर् भीरु न, अन्य अस्तु. ड्रम् एव अस्तु. अन्तिमम् अपि पठतु भगिनि. बलरामः
बलरामः हलेन शत्रून् मारितवान् बलराम बलरामः केन शत्रून् मारितवान्
केन शत्रून् मारितवान् सो अत्र हलः वा हलं वा
हलः
हलः पुल्लिङ्ग सो अत्र पुल्लिङ्ग नपुंसकलिङ्ग किञ्चित् भ्रमः भवति किमर्थम् इत्युक्ते समान अन्तिमरूपं खलु अतः हलः हलेन शत्रून् मारितवान् अस्तु सो एतत् वयं पठितवन्तः अतः अग्रे गच्छामः अतः हस्तौ हस्ताः हस्तेन हस्ताभ्यां मालया मालाभ्यां मालाभिः सूची सूची इत्युक्ते नीड् सूच्या सूचीभ्यां सूचीभिः फलं फलेन फलाभ्यां फलैः अस्तु अभ्यासं कुर्मः वा झटिति कुर्मः अस्तु श्रीनिवास महोदय द्वयं द्वयं करोतु महोदय
आं भगिनि विभक्तिरूपूपूपूरयत् ओके कृष्णः हस्तः सेनां दर्शयति कृष्णः हस्तेन सेनां दर्शयति
हस्तेन सेनां दर्शयति अस्तु अग्रे
कृष्णः रथेन गच्छति
रथेन गच्छति सम्यक् तथा भगिनि
आं भगिनि कृष्णः कषया अश्वान् चोदयति
सम्यक् कषया अश्वान् चोदयति
कृष्णः गदया शत्रून् हन्ति
शत्रून् हन्ति अस्तु अग्रे धन्यवादः भगिनि कष इत्युक्ते विप् इति वदामः खलु विप् चोदयति इत्युक्ते आङ्ग्लभाषा विप् एव हि विप्ड् वित् द विप् इति
बीटिङ्ग्
बीटिङ्ग् य बीटिङ्ग् य विप्पिङ्ग् इस् अ बेटर् विप्पिङ्ग् हिट् अस्तु अग्रे निर्मला भगिनि
आं भगिनि कृष्णः वंशी मधुरं गायति कृष्णः वंश्या मधुरं गायति
वंश्या सम्यक् वंशी इत्युक्ते
म्यूसिकल्
फ्लूट् खलु फ्लूट्
नेक्स्ट् वन् कृष्णः वेत्रं धेनुं स्पृशति कृष्णः वेत्रेण धेनुं स्पृशति
वेत्रेण भवति णकारं भवति किमर्थमित्युक्ते रेफा अस्ति वेत्रम् इत्युक्ते किं
धेनुं स्पृश वेत्रं
केन् केन् धेनुं स्पृशति अस्तु अग्रे सन्ध्या भगिनी अग्रे
कृष्णः चक्रं दुष्टान् निग्रहं निगृह्णाति कृष्णः चक्रेण दुष्टान् निगृह्णाति
चक्रेण दुष्टान् निगृह्णाति सम्यक् अस्तु अन्यदपि करोतु भगिनि एतत् पठतु
आवरणे स्थितस्य शब्दस्य तृतीयाविभक्तिरूपेण यथोदाहरणं वाक्यानि रचयत् उदाहरणं योद्धारः खड्गैः युध्यन्ते भक्ताः पत्रैः देवम् अर्चन्ति
सम्यक् इदानीम् एकवचनं वा द्विवचनं वा बहुवचनं वा इति दृष्ट्वा
पत्राणि अतः बहुवचनं तृतीया पत्रैः
सम्यक् अस्तु शारदा भगिनी
ऋषयः वेदमन्त्रैः हवनं कुर्वन्ति. अर्जुनः दिव्यदृष्टिभिः विश्वरूपं दृष्टवान्.
अस्तु, सम्यक्. परन्तु दृष्टिः इति एकवचनं वा द्विवचनं वा बहुवचनं वा? दृष्टिः एकवचनम्. सो अतः रूपं कथं भवति?
दिव्यदृष्ट्या
दिव्यदृष्ट्या. एवम् एवं.
Just assumed they were asking, so I gave the...
I know, bhagini, I know. एवम्
एकवचने विसर्गः कथं भवति?
इट् वोन्ट् बी देर्. दृष्टिः इति स्त्रीलिङ्गपदं, लैक् मतिः, बुद्धिः इव.
मतिः
उत्तमप्रश्नः. अस्तु, अग्रे. अग्रे का? सन्ध्या भगिनि.
आं भगिनि. भीमः गदा रिपून् प्रहरति. भीमः गदया रिपून् प्रहरति. एकवचनं. अतः गदया. रिपून् इत्युक्ते शत्रु खलु भगिनि?
शत्रून्.
शत्रून्
शत्रून् प्रहरति.
अग्रिमपि वा?
आम् आम्.
वयं नेत्रे पश्यामः. वयं नेत्राभ्यां पश्यामः.
सम्यक्. नेत्रं, नेत्रे, नेत्राणि, नेत्राभ्यां, द्विवचनं. पश्यामः. अस्तु, शारदा भगिनि.
Bhagini, sorry, vayam is bahuvachanam, right? If vayam will not disturb the netre,
no. No. Vayam will be associated with the kriyapadam. Kartrupadam kriyapadena sambandaha bhavati, parantu karma padena sambandaha na bhavati.
Okay. Thank you.
अस्तु, शारदा भगिनि.
अश्वाः पादैः धावन्ति. द्रौपदी कमलैः मालां रचयति.
मालां रचयति. सो अत्र बहुवचनं. पादाः कमलं, कमले कमलानि. अस्तु, श्रीनिवास महोदय.
नार्यः द्रोण्यः जलं नयन्ति. द्रोण्यः इस् द्रोणी न इट्स् इकारान्तपदं. सो द्रोणिभिः द्विवचनं.
त्रीणि रूपाणि वदतु. द्रोणी,
द्रोणी, नदी, नद्यो, नद्यः. सो बहुवचनम्. ओके, ठीक है. द्रोणी, द्रोण्यो, द्रोण्यः.
द्रोणी
बहुवचनं. नार्यः द्रोणिभिः जलं नयन्ति.
द्रोणीभिः जलं नयति.
द्रोणीभिः जलं
नयन्ति. द्रोणीभिः जलं नयन्ति. अस्तु, अन्ते.
दृष्टद्युम्नः कङ्गः द्रोणाचार्यं खड्गः. ओके, खड्गः द्रोणाचार्यः हतवान्. दृष्टद्युम्नः खड्गेन द्रोणाचार्यं हतवान्
खड्गेन द्रोणाचार्यं हतवान् अस्तु सम्यक् इदानीम् एवम् अस्ति वयं पूर्वमेव पठितवन्तः परन्तु पुनरेकवारं बालेन बालाभ्यां बालैः सो अत्र एतत् पर्यन्तं पुल्लिङ्ग अकारान्तपुल्लिङ्गशब्दः वेदः वेदौ वेदाः वेदेन वेदाभ्यां वेदैः अग्रे अस्ति इकारान्त मुनिः मुनी मुनयः कविः कवि कवयः तत्र ना भवति मूलरूपं ना मुनिना कविना अनन्तरं मूलरूपं ना मूलरूपं भ्यां मूलरूपं भिः नाभ्यां भिः नाभ्यां भिः मूलरूपम् एवमेव उकारान्तपदम् अपि तादृशरूपमेव प्राप्नोति नाभ्यां भिः शिशु मूलरूपं शिशु शिशु सर्वत्र नाभ्यां भिः नाभ्यां भिः नाभ्यां भिः सो पुल्लिङ्गे दिस् इस् द पेटर्न् नाभ्यां भिः अकारान्त भिन्न तत्र किमपि नास्ति अस्तु इदानीं ऋकारान्तपदम् ऋकारान्तपदं भिन्नरूपं भवति खलु वक्तारौ वक्तारः पिता अस्ति चेत् पित्रा न अत्र पिता पितरौ आ न भवति पिता अस्ति चेत् पितरौ पितरः परन्तु अत्र समानरूपम् पित्रा पितृभ्यां पितृभिः पितृ पित्रा पितृभ्यां पितृभिः सो अत्र तृतीया विभक्ति अस्ति चेत् आ भवति पितृराब पित्रा एवं भवति पित्रा पितृभ्यां दाता दात्रा अनन्तरं भ्यां भिः समानं भ्यां भिः समानमस्ति इदानीं स्त्रीलिङ्गे आकारान्तस्त्रीलिङ्गं वयं जानीमः महिला एवमस्ति महिलया आ अ भवति परन्तु सर्वत्र या सर्वत्र या 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 सर्वत्र महिलया अनन्तरं महिलाभ्यां भिः समानं श्रद्धाभ्यां भिः मूलरूपम् एवमस्ति मूर्तिः इकारान्तपदं मतिः किं भवति मति इ उ गच्छति इ इ अस्ति चेत् गच्छति उ अस्ति चेत् अपि गच्छति इव इव गच्छति सो अतः वेन् वि सी लैक् दिस् इत्या इत्या अर्व या वि नो इट् इस् इ आर् उ एन् ए अया अस्ति चेत् आकारान्तपद मूर्त्या मूर्तिभ्यां मूर्तिभिः मत्या मतिभ्यां मतिभिः सो अत्र मतिः मती मतयः लैक् कविः कवी कवयः समानमस्ति प्रथमाविभक्ति समानमस्ति परन्तु अत्र समानं नास्ति समानता नास्ति स्वागतम् अम्ब इदानीमेव नेट्वर्क् सम्यक् अस्ति वा
सम्यक्
उत्तमं स्वागतम् अस्तु सो अत्र
सो नैस् टु सी अम्ब
सा उक्तवती नेट्वर्क् सम्यक् नास्ति अहम् आगन्तुं न शक्नोमि इति अहं किमपि साहाय्यं कर्तुं न शक्तवती इतः
मम नमस्कारं स्वीकरोतु अम्ब धन्यवादः सोरि
न न म्यूट् मध्ये अस्ति वा अस्तु दर्वी किञ्चित् किञ्चित् ध्वनिः अस्ति अस्तु दर्वी दर्व्यौ नदी नद्यौ नद्यः सो अत्र स्टाण्डर्ड् एकं स्वीकरोतु. नदी नद्यौ नद्यः झटिति आगच्छति. दर्वी दद्यौ दद्यः. द्रोणी द्रोण्यौ द्रोण्यः इति एवमेव कर्तरी भगिनी भवती नारी समान नारी भवती ईकारान्तपदम् अस्ति चेत् एवमेव भवति ईकारान्तपदम् अस्ति चेत्. परन्तु अत्र या सो अत्र मत्या अस्ति चेत् दर्व्या अस्ति चेत् मतीव दर्वीव दर्विः वा न जानीमः. रूपं दृष्ट्वा न जानीमः मूलरूपं किम् इति. परन्तु वि हाव् टु नो द मूलरूपं मति वा दर्वी वा इति. ओके अदर्वैस् इट् विल् बि अ प्राब्लम्. कुत्र प्राब्लम्? द्विवचने बहुवचने प्राब्लम् भवति. दर्वीभिः वा मतिभिः वा इति न जानीमः. सो अतः मूलरूपम् आवश्यकं मूलरूपज्ञानम् आवश्यकम्. ओके सो अत्र परन्तु सर्वत्र दर्व्या मत्या इति एकवचनं समानं भवति. द्विवचनमूलरूपं भ्यां मूलरूपं भिः एवं भवति सर्वत्र. भवती अपि सम्यक् सता एव भवति भगिनी नारी इति. इदानीम् उकारान्तपदम् उकारान्तपदं धेनुः धेनू धेनवः गुरुः गुरू गुरवः समानं भवति. चञ्चुः चञ्चू चञ्चवः. अत्रापि उकार अस्ति चेत् वा भवति. इकार अस्ति चेत् य. उकार अस्ति चेत् वा वा भवति. ऊकार अपि वा एव. वधूः वद्वा वधू वद्वौ अत्र वा भवति. इकार अस्ति चेत् यौ भवति. सो अत्र अपि तृतीया विभक्तौ अपि तथा एव. ऊ अस्ति चेत् वा ई अस्ति चेत् य. ऊ वा धेन्वा अत्र नार्या अस्ति अत्र धेन्वा धेनुभ्यां धेनुभिः. चञ्च्वा चञ्चुभ्यां चञ्चुभिः. वद्वा अत्रापि दीर्घ वा ह्रस्व वा न जानीमः. तन्वा वद्वा तनूः वा वधूः वा वधुः वा रूपं दृष्ट्वा न जानीमः. परन्तु ज्ञानम् आवश्यकम्. वधूः वधूभ्यां वधूभिः एवं भवति. अन्ते फलं फले फलानि फलं फले फलानि फलेन फलाभ्यां फलैः. इदानीम् अत्र इकार उकार अस्ति वा? नास्ति. अस्तु. परन्तु इकार उकार अस्ति चेत् उदाहरणं वारि वारि अस्ति चेत् किं भवति? वारि स्मरन्ति वा? वारि प्रथमाविभक्तिरूपं सम्यक्. सो अत्र प्रथमं बहुवचनं लिखामः. बहुवचनम् एवं भवति. सो अतः मध्ये किं भवति? वारी अत्र ण भवति. वारीणि. सो अतः मध्ये किं भवति? वारिणी इति भवति. ओके द पेटर्न् एवम् अस्ति. सो अत्र पुस्तकं पुस्तके पुस्तकानि इति अस्ति खलु पुस्तकानि. सो अतः नी इति ह्रस्वं भवति दीर्घं न भवति. तत् स्मरन्तु पुस्तकानि. सो यु फालो दट् पेटर्न् पुस्तकानि. सो अत्र नी ह्रस्व सो अत्र लिखतु आ दीर्घं भवति. इत्युक्ते नी इति अस्ति ततः पूर्वं यत् अस्ति तत् स्वरः सः स्वरः दीर्घं भवति. सो अत्र वारीणि इति भवति. अतः द्विवचने विपरीतं मध्ये किमस्ति तत् ह्रस्वं भवति. अन्ते किमस्ति तद् दीर्घं भवति. वारिणी इति प्र प्रथमाविभक्तिरूपाणि. इदानीं तृतीया विभक्ति किं भवति? पुल्लिङ्गवत् भवति, पुल्लिङ्गवत् भवति वारिणा. अनन्तरं मूलरूपं भ्यां, मूलरूपं भिः समान, मूलरूपं भ्यां वारिभ्यां वारिभिः एवम् एवं भवति. इदानीम् उकारान्तपदं नपुंसकलिङ्गं किम् अस्ति उदाहरणं? मधु, मधु उत्तम, मधु, मधु अपि समानं. प्रथमम् एवं लिखामः मधूनि, पुस्तकानि मधूनि. सो अतः मध्ये
मधुनी,
मधुनी इति इति भवति. ओके, दिस् मेथड् इट् वर्क्स् फार् मी, अतः एव अहम् अहं वदामि मधूनि, मधुनि एवं भवति. इदानीं तृतीया विभक्ति कथं भवति?
मधुना,
मधुना अत्र न एव अणान. अनन्तरं मधुभ्यां मधुभिः, मधु मधुभिः सम सुलभः एव. पाटर्न् जानीमः चेत् सुलभः. अस्तु अस्तु उत्तम. सो इदानीम् आरम्भं कुर्मः वा? एकम् एकमेकं स्वीकृत्य. अस्तु, कः वदति इदानीं? श्रीनिवासमहोदय एव, शमिता महोदय भवान् एव प्रथमं.
नो प्राब्लम् भगिनि.
ओके,
कोष्टकं दृष्ट्वा तृतीया विभक्तिरूपैः रिक्तस्थानि पूरयत्र. ओके, योधः, योधेन, योधेन योधेभ्य, योधाभ्यां योधैः. ओके, हयः, हयेन हयाभ्यां हयैः,
हयैः सम्यक्. धर्मः,
धर्मः धर्मेण धर्माभ्यां धर्मैः,
धर्मेण
आलार अकारान्तपुल्लिङ्गम्,
अकारान्तपुल्लिङ्गं सम्यक्. अस्तु, अम्ब, योगः, म्यूट् मध्ये अस्ति.
योगः योगाभ्यां योगैः,
योगेन योगाभ्यां योगैः सम्यक्. योगेन योगाभ्यां योगैः अकारान्तपुल्लिङ्गशब्दः. अस्तु, अग्रे पठतु, उदाहरणं पठित्वा यतिः करोतु.
रविणा रविभ्यां रविभिः, यतिना यतिभ्यां यतिभिः
सम्यक्. यतिना यतिभ्यां यतिभिः इकारान्तपुल्लिङ्गपदं सम्यक्. धन्यवादः. अग्रे अपि करोति वा? भवती विलम्बेन आगतवती. मणिः,
मणिः, मणिना मणिभ्यां मणिभिः.
अग्रे
समाधिः, समाधिना समाभ्यां समाभिः,
समाधिभ्यां समाधिभिः, समाधिना समाधिभ्यां समाधिभिः सम्यक्. अस्तु, धन्यवादः. अस्तु, अग्रे लता भगिनी. प्रभु इदानीम् उकारान्तपदम्
भगिनि, उकारान्त प्रभुः, प्रभुना प्रभुभ्यां प्रभु प्रभुभिः, गुरुः गुरुणा गुरुभ्यां गुरुभिः
सम्यक्. सम्यक्, अस्तु, धन्यवादः. निर्मला भगिनि.
इक्षुः इक्षुणा इक्षुभ्याम् इक्षुभिः, क्रतुः, वाट् इस् दट् भगिनि, क्रतुः,
क्रतुः,
क्रतुणा क्रतुभ्यां क्रतुभिः,
अस्तु इक्षु इत्युक्ते किम् अवगच्छति वा न इक्षु इत्युक्ते शुगर् केन् शुगर् केन् इक्षु
वट् इस् क्रतु भगिनि
क्रतु शक्तिः इति शक्ति पवर् एवं खलु सो लेट्स् वेरिफै देट् क्रतु ओ नो डिफरेण्ट् अस्ति
worship
ability so many things bagini so power api asti it depends on the context
ability
intelligence comes as so ekah eva artah iti iti na astu That is the problem or beauty, I don't know. Asta, agree? Agree ka? Lata bhagini? Uktavati, Nirmala bhagini.
I finished just now.
Nirmala bhagini, Shramyata, Sandhya bhagini.
Bhagini. Kratuhu... क्रतूनां क्रतुभ्यां क्रतुभिः रिपुः रिपुणा रिपुभ्यां रिपुभिः
रिपुणा रिपुभ्यां रिपुभिः स्मरन्ति वा वेन् डु वि वेन् दस्तण त्वं कं वेन् इट् डजन्ट् कम् इति
रेफा रेफा गणकम्स् भगिनि
ऋकार षकार अस्ति चेत् णत्वं भवति परन्तु मध्ये किं भवति उदाहरणार्थं मध्ये स्वरः अस्ति चेत् णत्वं भवति मध्ये कवर्गः अथवा पवर्गः अस्ति चेत् णत्वं भवति मध्ये य व ल इति चिन्त्य अथवा ह वा न स्मरामि एवम् अस्ति चेत् भवति य व ह अस्ति चेत् भवति नत्वं भवति नो चेत् नत्वं न भवति अस्तु सो अत्र पश्यन्तु प्र र अस्ति अनन्तरं भ अस्ति भ इति पवर्गः प प भ भ एवं सो वि विल् सी कुत्र कुत्र भवति कुत्र न भवति सो अत्र रवि व अस्ति अतः णत्वं भवति अत्र त अस्ति त इति कवर्ग पवर्ग न अतः णत्वं नास्ति एवं गुरु अस्ति रेफा अस्ति अनन्तरम् उ अस्ति स्वरः अतः न नास्ति न नास्ति न एव भवति सो अत्र इक्षु इक्षुणा वा इक्षुना वा सो अत्र ष इक् क्ष एव क्ष सो अतः ण एव किमर्थमित्युक्ते शकारः अस्ति इक्षु अनन्तरम् उकारः अस्ति विच् इस् अ स्वरः अत्र क्रतु क्रतु अस्ति सो अत्र ण व न व
भगिनि अस्ति
न एव किमर्थं त अस्ति त विल् prevented badakam karoti it will prevent tanatvam so these are the ones we have to look for pratamam repah ऋकार शकार अनन्तरं स्वरः अस्ति चेत् अथवा ख वर्गः फवर्गः अस्ति चेत् भवति अथवा य व ह अस्ति चेत् भवति. अन्य अत्र तकारः अस्ति चेत् न भवति, अत्रापि तकारः न भवति एव. अस्तु, रिपु रिपुणा, अत्र ण सम्यक् एव, ण सम्यक् एव. किमर्थम् इत्युक्ते रेपा अस्ति रि, अनन्तरं पकार, अनन्तरम् उकार, बोत् आर् ओके, साधकं, दे आर् हेल्पिङ्ग्, साधकं करोति, साधकं. पकार उकार पवर्ग स्वरः, अतः णत्वं रिपुणा. अस्तु, सन्ध्या भगिनि अग्रे, क्षम्यताम्. ऐ वाण्ट् टु
not at all, but every time you tell us it's very clear, but you know, at least I tend to forget it. Bhagini, Bhagini, is there a document which has all these rules?
Yes, I will.
If you could share it, Bhagini.
Sure.
And also one more basic doubt, Bhagini, sorry. Why is yati he not like matihi? Why is it not yatya and why is it yatina?
That's a million dollar question, Bhagini. I don't know.
Okay.
Yati is a pulling up, like you say, hello, Ramanuja, we call him yatindra. That is a saint. Yati is right. Saint, yeah. So Ravi means sun, it is a pulling up padam. So it's just how it is.
I
cannot say why. Yeah.
Okay, these are the exceptions to the rule, right?
No. We just have to know the meaning.
That's the meaning. Oh, I see. Okay.
Udaharanartham, Prabhu, Guru, Ikshu, they are all pulling up padam. Ukara. Parantu Rajju is a striling up padam. Why? I don't know. It's just how it is. Designated to be Strilinga.
Oh, okay. Okay.
Not because of how it is written or anything like that. It's just a Strilinga Pada. That's it.
Oh, okay. Okay. Got it, Bhagini. Thank you. Ripu is over. Pita. Pita, Pitra, Pitribhyam, Pitribhihi. Dhata. धात्रा धातृभ्यां धातृभिः
धात्रा धातृभ्यां धातृभिः सं
धातृभिः
शारदा भगिनी
आं भगिनि सृष्टा सृष्ट्रा स्रष्टृभ्यां स्रष्टृभिः
सम्यक्
टङ्ग् ट्विस्टर् भगिनि
यु डिड् इट् वेल् भगिनि
हन्ता हन्त्रा हन्तृभ्यां हन्तृभिः
सम्यक् हन्त्रा हन्तृभ्यां हन्तृभिः अस्तु अग्रे श्रीनिवास महोदय पुनः
निशा निशया निशाभ्यां निशाभिः श्रद्धा श्रद्धया श्रद्धाभ्यां श्रद्धाभिः
सम्यक् निशा इत्युक्ते किं निशा
लैट्
डार्क्नेस्
डार्क्नेस् डार्क्नेस्
डार्क्नेस् ओके
निशाचर सो वि काल् राक्षसास् निशाचर
इन्
दट् ऐ एम् सारी निशा मीन्स् नैट् नाट् डार्क्नेस् नैट् नैट् दिव अण्ड् निशा सो इन् दट् श्लोक वि से रैट् निशाचर चमो That is Ramena Hata, Nishachara Chamohu Iti. Astu, Agre?
माया मायया मायाभ्यां मायाभिः
मायाभिः. धन्यवादः महोदय. अस्तु, अम्ब अम्ब करोति वा?
माया मायाभ्यां मायाभिः
मायया मायाभ्यां मायाभिः. अस्तु, सम्यक्. अस्तु, अग्रे प्रभा
प्रभा प्रभया प्रभव प्रभभ्यां
प्रभाभ्यां प्रभाभ्यां
प्रभिभिः
प्रभाभिः प्रभाभिः प्रभाभ्यां प्रभाभिः. अस्तु, इदानीम् इकारान्तपदम् उदाहरणं पठतु, अनन्तरम्
कीर्तिः कीर्त्या कीर्तिभ्यां कीर्तिभिः
धृतिः
धृतिः धृत्या धृतिभ्यां धृतिभिः
धृतिभिः. अस्तु, सम्यक्. अस्तु, लता भगिनी.
आं भगिनि, महि मह्या महीभ्यां महीभिः, नदी नद्या नदीभ्यां नदीभिः.
अस्तु, अग्रे अपि पठतु भगिनि.
धेनुः धेन्वा धेनुभ्यां धेनुभिः, तनुः तन्वा तनुभ्यां तनुभिः.
सम्यक्. मही इत्युक्ते किं? मही
बफलोल्
अस्तु, एवं वा? सो ऐ वाण्ट् टु वेरिफै दट्. तनु इत्युक्ते शरीरं. तनु इत्युक्ते लैक् यु से तन् मन् इति हिन्दीभाषायाम् अस्ति, तथा एव. महि इत्युक्ते ऐ थाट् इट् वास् अर्थ्. महि इस् अर्थ्, महिषि इस् बफलो, महिषा महिष इति. महि इस् अर्थ्. अस्तु, अस्तु, अग्रे अपि अभ्यासः एव. कोष्टके विद्यमानानां शब्दानां तृतीयाविभक्तिरूपं प्रयुज्य वाक्यं पूरयत इति. अस्तु, का वदति? निर्मला भगिनी.
अर्जुनः इषवेन शत्रून् हतवान्.
सो अत्र मूलरूपं किम्?
इक्षु. इस् इट् इक्ष्
इषु इषु
इषु
बिकास् इषवः इति अस्ति चेत् लैक् गुरुः गुरु गुरवः इषवः
बहुवचन
सो अकारान्त पुल्लिङ्ग नपुंसकलिङ्ग अस्ति चेत् ऐ ऐ भवति. रूपं पुनरेकवारं स्मारयामि. सो अत्र बिः भवति, बिः गुरु गुरु गुरुभिः इति इति भवति.
इषुभिः शत्रून् हतवान्.
इषुभिः हतून् हतवान्. अस्तु, अग्रे गदे इति अस्ति. भीमः
दुर्योधनः च गदाभ्याम्.
सम्यक्. गदा गदे गदाभ्यां. सम्यक्.
युत्येते
गदाभ्यां. द्विवचनम् अस्ति अत्र, अत्र बहुवचनम्. अस्तु, सो अत्र उकारान्त बहुवचनम्, अत्र गदा आकारान्त द्विवचनम्. सो अत्र पुल्लिङ्ग पुल्लिङ्ग अत्र स्त्रीलिङ्ग सम्यक् अस्तु सन्ध्या भगिनी अग्रे
भीमः दुर्योधन च गदाभ्यां युध्येते
गदा अभवत् अग्रिमं करोत्
ओ सारी भगिनि
सारथिः
रज्जवः बहुवचनं रज्जुभिः अश्वान् बध्नाति
रज्जुभिः सो अत्र पश्यतु इषु इति पुल्लिङ्गपदं रज्जु इति स्त्रीलिङ्गपदं परन्तु समानरूपं रज्जुभिः इषु इषुभिः इति कथं जानीमः न जानीमः रूपं दृष्ट्वा न जानीमः परन्तु अत्र कोष्टके कोशे सो अत्र रज्जु रज्जु इति पश्यामः चेत् स्त्रीलिङ्ग इषु पुल्लिङ्ग ओ स्त्रीलिङ्ग अपि अस्ति वा परन्तु साधारणतया पुल्लिङ्ग एव वदामः सो अन्यकोशं पश्यामः एकनिमेषम् ऐ आल्वेस् थाट् इट् वास् पुल्लिङ्ग इशु पुल्लिङ्ग अपि अस्ति स्त्रीलिङ्ग अपि अस्ति अस्तु
न श्रूयते
ओ एवं वा इदानीं
श्रूयते भगिनि
वाल्यूम् अड्जस्ट् करोतु अम्ब वाल्यूम् अड्जस्ट् करोतु अस्तु सो अत्र इषु इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा समानरूपमेव अस्ति स्त्रीलिङ्गपदम् अस्तु अग्रे अपि करोतु भगिनि सन्ध्या भगिनि
आं भगिनि हर्षामर्षभयोद्वेगाभिः मुक्तः भक्तः कृष्णस्य प्रियः वाट् डस् इट् मीन् भगिनि
अहं न जानामि पश्यामः सो अत्र
Harsha is happiness.
Happiness.
Bhayam is fear. Udvega is excitement.
Excitement. So, atra madhye.
Madhye.
Amarsha. Harsha iti te happiness. Amarsha probably unhappiness.
Ah, okay. Harsha, marsha, bhayo, udvega.
So, atra harsha. So, whenever the words are together, the word मूलरूपमेव अस्ति अत्र सो अत्र सो हर्ष अमर्ष दिस् इस् वाट् ऐ थिङ्क् अमर्ष भय
उद्वेग
उद्वेग एण्ड् उद्वेगाः बिकास् देर् आर् फोर् वर्ड्स् हर्ष अमर्ष भय उद्वेगाः इदानीम् अमर्ष इत्युक्ते अहं चिन्तयामि अन्हेपिनेस् सारो इति परन्तु पश्यामः इम्पेशन्स् एङ्गर् एङ्गर् पेशन्स् अस्तु अहं चिन्तितवती दि आपोजिट् आफ् हर्ष इति एङ्गर् एव आमर्ष अमर्ष एङ्गर् अस्तु
those who are were able to be away from happiness, anger, fear and excitement are those who are who Lord Krishna is fond of.
Vegaah muktah bhaktah. Muktah means released from them.
Release, yeah.
Who are not affected by them.
Oh, okay.
Bhaktah Krishnasya Priyah. Astu, agree?
Next one also, Bhagini?
No. Sharada Bhagini. Dhanyavada.
Dhanyavada.
Vayam Abhyasa Yogena Krishnam Aptum Ichchamaha.
Aptum Ittite?
Obtain.
Aptum, praptum, samana.
Ratah chakrena chakrabhyam
samyak.
Chalati.
Samyak bhagini. Chakrabhyam chalati. Samyak. Chakrabhyam chalati. Kimartam dvi vachanam. Atra eka vachanam. Atra bahu vachanam. Udvegaihi muktah bhaktah. रज्जवः अपि बहुवचनं रज्जुभिः स्वत्र अकारान्तपदम् अतः ऐः इति भवति. अस्तु, उत्तमं. श्रीनिवास महोदय पुनः.
बलरामः हलं प्रहरति. बलरामः हलेन प्रहरति.
हलेन प्रहरति. अस्तु.
पाण्डवाः शङ्काः रणघोषं कृतवन्तः. पाण्डवाः शङ्कैः रणघोषं कृतवन्तः.
शङ्कैः. अस्तु अस्तु, अम्ब अग्रे. शराः इति अस्ति. शर पुल्लिङ्गं वा स्त्रीलिङ्गं वा? शराव शरः वा?
शराः
न मूलरूपं शराव शरः वा? शरः. उत्तमं. शरः इति अस्ति चेत् बहुवचनं किं भवति? न रामः इति अस्ति चेत् रामेण रामाभ्यां
रामाभ्यां
रामेण रामाभ्यां रामैः खलु. हस्तेन हस्ताभ्यां हस्तैः. ऐः इति भवति. पुल्लिङ्ग स्त्रीलिङ्ग पुल्लिङ्ग नपुंसकलिङ्ग अकारान्तपदमस्ति चेत् सो अत्र शराः इति शर इति मूलरूपं सो अन्ते शरैः. सम्यक्. शरैः. सम्यक्. अग्रे
किं गोविन्द किं गोविन्द
न अत्र राज्यम् इति अस्ति नपुंसकलिङ्गपदम्. एकवचनं किं भवति? पुस्तकेन वनेन इव
किं नो राज्येन गोविन्दः.
राज्येन. सम्यक्. सो राज्यम् अस्ति राज्येन न एव अस्ति. किमर्थं मध्ये ज अस्ति च च ज ज न च इति बाधकं करोति अतः न एव भवति ण न न भवति च इति राज्येन एव सो अत्र अर्थः कः किं नो राज्येन गोविन्द गोविन्द अर्जुनः वदति हे गोविन्द गोविन्द इति सम्बोधन सो अत्र नो इति नः अभवत् अथवा नः नो अभवत् नः इत्युक्ते किं नः अत्र विभक्तिरूपं सम्यक् आवां फार् अस् इति फार् अस् अस्माकम् अस्माकं सो अत्र नो नः अस्मत् शब्द परन्तु अस्मत् शब्द अत्रापि नः भवति चतुर्थी षष्टि अपि भवति चतुर्थी अपि भवति अन्य कुत्र एक्साक्ट्लि 2, 4, 6 तत् स्मरन्तु सर्वे odd numbers na even numbers smarantu 2, 4, 6 madhye naha iti asmat shabdasya bahuvachanam bhavati parantu in this context sandarbhanusaram 2 va 4 va 6 va asman bhavati va अन्य किम् अस्मान् भवति वा अस्माकं भवति वा अथवा अस्मभ्यं भवति वा अस्मभ्यं न भवति खलु अस्मभ्यं न भवति अस्माकमेव भवति अस्मान् न भवति
प्रोबब्लि चतुर्थी भगिनि
या फार् अस्
चतुर्थी भवति अथवा अस्तु चतुर्थी इति अनुमानं कुर्मः अस्माकं कृते किमर्थं सो अत्र किम् इति अस्ति चेत् किमर्थम् इति अस्ति किमर्थम् अस्माकं कृते राज्यं राज्येन
Bhagini, does it mean what will we do with the Rajyam?
Yeah, what is the use of the Rajyam? Because he's saying all the people will be dead. What is the point in having the Rajyam with no people there? So, atra chaturthi samyak bhavati va, shashti bhavati va, dvitiya vibhakti bhavati va iti sandarbhanusaram vayam निर्णयं करणीयम्
अन्लेस् वि इण्टर्प्रिटेट् अस् वाट् इस् द यूस् आफ् अवर् किङ्ग्डम् इन् विच् केस् इट् बिकम्स् अस्माकं षष्टि भगिनि
अस्माकं राज्येन
देन् इट् वुड् हव् बीन् राज्यं नाट् राज्यं रैट् भगिनि
Dvitiya or Chaturthi? To us, what is the use of a Rajyam to us or for us?
For us iti asti chet Chaturthi bhavati. For us.
To us Dvitiya bhavati, na
bhagini? No, Dvitiya means it becomes the object kalo. अवर् इति अस्ति चेत् षष्टि भवति किं प्रयोजनं किम् अस्ति चेत् किं प्रयोजनं राज्येन वाट् इस् द यूस् फार् अस् राज्येन अस्माकं कृते किं प्रयोजनं बट् इफ् यु look at the Gita site, okay, ekanimesha. What did Arjuna really say? Anyway, so I'm wasting time, I think. Okay, astu, it didn't come up. Astu, so atra kim no rajyena govindah. So atra rajyena kim prayojanam asmakam krite. So it becomes chaturthi. Iti aham chintayam. Astu. So it depends on each person's interpretation. Astu. Agre ka asti? Sharaihi amba kritavati. Astu. Agre lata bhagini. Pakshinaha.
Am bhagini. Pakshinaha pakshau dayante. Pakshinaha pakshabhyam dayante.
पक्षौ अस्ति चेत् त्रीणि रूपाणि कानि प्रथमा विभक्ति पक्षः पक्षौ पक्षः सो अतः अकारान्त पुल्लिङ्गपदम् पक्षाभ्यां दयन्ते अस्तु अत्र पुल्लिङ्गे नपुंसकलिङ्गे किमपि भवतु आभ्यां भवति
छात्राः लेखन्यः लिखन्ति छात्राः लेखनीभिः लिखन्ति
लेखनीभिः लेखनी इति मूलरूपं लेखनीभिः लिखन्ति सर्वे अवगच्छन्ति खलु रूपाणि
If it had been pakshi, it would be pakshyau, right? That's the word.
So, atra, pakshin iti moolarupa. Uttama prashnaha bhagini. So, atra, pakshin iti moolarupam bhavati. Ek animesham. Let me... सो एवम् अस्ति पक्षिन् इति मूलरूपं सो अत्र प्रथमाविभक्तिरूपं भवति पक्षिणौ पक्षिणः सो अत्र पक्षिणः इति बहुवचनम् अस्ति पक्षिणः पक्षी पक्षिणौ पक्षिणः
So, pakshau, what is the moola rupam, Bhagini?
So, paksha, this pakshi is the bird, pakshi.
Right.
So,
right.
Paksha means a wing.
Wing, oh, I see. Okay.
But it also means side, paksha, like Krishna paksha.
Dhanyavad Bhagini. I because both the words come in the same sentence.
So whenever there is a doubt, you know, we have our kosha to help. Side of anything, fortnight. Wing of a bird, sarva, paksha. So it depends on the context. Atra.
Context, okay. Dhanyavad.
Dhanyavad. Astu. Agre bhagya. Agre kim api nasti. Astu. किञ्चित् समयः अस्ति. निर्मला भगिनि.
विभागे एकः शब्दः दत्तः अस्ति. का विभागे तस्य शब्दस्य तृतीया विभक्तेः रूपद्वयं दत्ते अस्ति. तयोः उचितं रूपं चित्वा रिक्तस्थाने लिखत. यज्ञौ यज्ञाभ्यां सुनद्यौ नदीभ्यां
नदीभ्यां नदीभ्यां. अस्तु, अग्रिममपि करोतु.
कृतवः
क्रतवः
क्रतवः क्रतुभिः
क्रतुभिः सम्यक् क्रतुभिः. अस्तु, सन्ध्या भगिनि.
आदित्याः आदित्यैः
आदित्यैः
श्रुतिः श्रुत्या
श्रुत्या एकवचनमेव. अस्तु,
एकवचनं.
शारदा भगिनि.
मित्रे मित्राभ्यां
मित्राभ्यां
हयाः हयैः
हयैः. अस्तु, श्रीनिवास महोदय.
नार्यौ नारीभ्यां
नारीभ्यां सम्यक्
नार्यौ नारीभ्यां शरैः शरै
शरौ
कन्नडी ओके शरौ शराभ्यां शरौ अजीन या करेक्ट द्विवचनं मन्ये शरौ शराभ्यां
शराभ्यां. अग्रिमम् अग्रिममपि करोतु. वज्रं
वज्रं वज्रेण
वज्रेण वज्रेण. अस्तु अस्तु, अग्रे समयः अस्ति वा? इतोपि किञ्चित् समयः अस्ति. सो अत्र प्रश्नान् लिखत इति अस्ति. ते पुष्पैः अर्चन्ति. कैः इति प्रश्नः भवति. कैः अर्चन्ति? पुष्पैः अर्चन्ति इति. अम्ब करोति वा? अर्जुनः हस्ताभ्याम् अयुध्यत. अयुध्यत इत्युक्ते युद्धं करोति, युद्धं कृतवान् इति. अयुध्यत. अम्ब म्यूट् मध्ये अस्ति.
अर्जुनः कदा अयुध्य
कदा न कथं कथम् अयुध्यत. परन्तु अत्र अत्र किं शब्दम् उपयुज्य. सो अत्र पुल्लिङ्ग अस्ति चेत् केन काभ्यां कैः. पुल्लिङ्ग नपुंसकलिङ्ग अस्ति चेत् एवं भवति. स्त्रीलिङ्ग अस्ति चेत् कया काभ्यां काभिः. सो एवमेव अस्ति. केन काभ्यां कैः अथवा कया काभ्यां काभिः. सो अत्र हस्ताभ्याम् इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा? द्विवचनम् अस्ति चेत् काभ्याम् एव. पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा किमपि भवतु, द्विवचनं बहु सुलभः. सो अत्र हस्ताभ्याम् इति अस्ति. सो अत्र केन वा कया वा काभ्यां वा कैः वा काभिः वा? आभ्याम् इति अस्ति खलु, क्लू अत्र अस्ति. आभ्याम् अस्ति चेत् किं भवति? अवगच्छति वा? सो अत्र पुष्पैः ऐः इति अस्ति. सो अतः कैः कैः बिः भिः इति अस्ति चेत् काभिः, भावेन एन इति अस्ति चेत् केन, वा अस्ति चेत् या कया इति भवति। इदानीं हस्ताभ्याम् इति अस्ति, आभ्याम् इति अस्ति चेत् किं भवति प्रश्नः, कः प्रश्नः भवति, केन वा काभ्यां वा कया वा भवति?
केन अयुज्यत्,
काभ्याम्, अत्र हस्ताभ्याम् इति अस्ति खलु, आभ्याम्, तदेव प्रश्नः अपि भवति, उत्तरं किम् अस्ति तदेव काभ्याम् अयुज्यत। अस्तु अग्रिमं करोतु,
सिद्धसङ्गताः
अन्ते किम् अस्ति, बिः अस्ति, कुत्र बिः अस्ति अत्र, केन वा कया वा काभ्यां वा कैः वा काभिः वा,
काभिः स्तुवन्ति,
सत्यं काभिः स्तुवन्ति। अस्तु इदानीम् अवगच्छति लता भगिनी, अग्रे।
आं भगिनि, सर्ववित् सर्वभावेन देवं भजति, सर्ववित् केन देवं भजति,
केन देवं भजति, सम्यक्, अग्रे।
वैनतेयः सञ्च्वा नागान् पक्षयति, वैनतेयः कया नागान् पक्ष्यति,
भक्षयति, भक्षयति इत्युक्ते खादति, चञ्चु चञ्चु चञ्च्वा कया, स्त्रीलिङ्गपदं स्त्रीलिङ्गपदम्। अस्तु अग्रे निर्मला भगिनी, ओ समयः अभवत् भगिनि, इदानीमेव पश्यामि, क्षम्यताम्, अग्रिमवर्गे कुर्मः, क्षम्यतां, समयः अभवत्। अस्तु इदानीं शान्तिमन्त्रम् उक्त्वा समापयामः। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः, हरिः ॐ श्रीगुरुभ्यो नमः, हरिः ॐ। धन्यवादः,
धन्यवादः भगिनी, धन्यवादः भगिनी, पुनर्मिलामः,
पुनर्मिलामः।